समये अल्पप्राण महाप्राण विषये अवधानपूर्वकं दानं करणीयं. किम् अक्षरम् अल्पप्राणः, किम् अक्षरं महाप्राणः इति कथं जानन्ति? इदानीं खेदः कथम् बालानाम् अल्पप्राण महाप्राण उच्चारणस्य शिक्षणं करणीयं. तदर्थम् उपायः, एकः सरल उपायः. इदानीं अहं यथा वदामि तथा भवन्तः कुर्वन्तु. इदानीं मुखस्य पुरतः हस्तं स्थापयतु. सर्वम् अल्पप्राणोच्चारणं करणीयम्. इदानीं महाप्राणः न क च य त त. इदानीं महाप्राण उच्चारणं करणीयं ख छ ठ ठ ठ. इदानीं प्रथमम् अल्पप्राण, अनन्तरं महाप्राण. क ख ग ख च छ ट ठ ड ढ. कः भेदः? महाप्राण उच्चारणं यदा भवति तदा वायुः अत्र हस्ते आयुः भवति, वायोः ताडनं भवति. एतदेव बालानां शिक्षणस्य अभ्यासः भवति. ते पुनः पुनः उच्चारणस्य महाप्राण उच्चारणाय एवं हस्तं गृह्णातु इति उक्त्वा ठ ठ ठ ठ ठ इति वाचयितव्यम्. इदानीम् अल्पप्राणं वदतु इति, वायुस्पर्शः न भवेत् इति वक्तव्यं. ज्ञातवन्तः? तथैव उच्चारणनिमित्तम् इदानीम् उदाहरणार्थं मकार उच्चारणं करणीयम्, अनुस्वार उच्चारणं करणीयम्. मकारस्य अनुस्वारस्य, मकारः अनुस्वारः भेदं जानन्ति खलु? एकः नियमः अस्ति, यदि कोऽपि एवं लिखति चेत् मार्जयित्वा गन्तव्यम् विरामकाले कोऽपि लिखितवान् इदानीं एतत् मकारः अनुस्वारः, अनुस्वारः एषः मकारः.
मम एकः प्रश्नः अस्ति, केचन जनाः फलम् इति वदन्ति, तत् नास्ति किल?
अस्ति अस्ति, उपद्मानीयः इति, उपद्मानीयः इति, उपद्मानीयः इति अस्ति. इदानीम् एतत्तु कुत्र आगच्छति इति अभवत्, सः अनन्तरविषयः. इदानीं केवलम् अयं विषयः तस्य उच्चारणसम्बन्धे. एतस्य उच्चारणं कथम्, एतस्य उच्चारणं कथम् इति, कुत्र मकारं लिखति, कुत्र अनुस्वारं लिखति इति प्रश्नः न. तस्य उच्चारणं कथं जानाति?
नासिके
ओष्ठयोः उपयोगेन. तदर्थं भवन्तः एव इदानीं उदाहरणार्थं सं इति संस्कृतं वा संस्कृतं? पश्यतु, ओष्ठयोः उच्चारणेन विना संस्कृतम् इति वक्तव्यं. सम् इति मकार ओष्ठचालनं न करणीयम्. इदानीं भवान् करोतु, वदतु.
संस्कृतं
भवान् ओष्ठस्य स्पर्शं करोतु. भवती ओष्ठं चालयति, सम् इति, सम् इति वदति, सम् इति न, संस्कृतं.
संस्कृतं
भवान्
संस्कृतं
वर्गीय पंचम व्यञ्जनं यदस्ति इत्यादि इत्यादि कवर्ग पंचमं चवर्ग पंचमं तवर्ग पंचमं सर्वत्रापि यन्नेव लेखनीयं भवति ततः तद् अपूर्णमेव अतः किमर्थं यं लिखामः इत्युक्ते संस्कृत इति सन् इति असमीचीनं तस्य परिवर्तनं करणीयं तदर्थं यं लिखामः संस्कृतं न परन्तु यन् लिखति चेत् जनाः संस्कृत् इत्यस्य परिवर्तनं न कुर्वन्ति यम् एतदर्थं जनानां उच्चारणपरिवर्तनाय भारतीकरणाय इदानीम् आङ्ग्लीकरणम् अभवत् संस्कृतस्य आङ्ग्लीकरणं परिवर्त्य संस्कृतीकरणं करणीयं भारतीकरणं करणीयं तदर्थं तथा
संस्कृति
संस्कृति
उच्चारणं
ओष्ठस्य उच्चारणं नास्ति संस्कृति संस्कृति न संस्कृति संस्कृति यत्र बिन्दुः अस्ति तत्र सर्वत्र आगन्तुं शक्नोति चिन्ता नास्ति इदानीं शिक्षणविषये पूर्वतनगोष्ठ्याम् अत्र ये आसन् सर्वे आगतवन्तः सर्वे भवतु अहं किञ्चित् प्रतीक्षा कृतवान् आगच्छति वा इति वयम् आरम्भं करिष्यामः यत्र इतोपि न आगतवन्तः भवतु चिन्ता मास्तु भाषाशिक्षणविषये इदानीम् अस्माभिः किञ्चित् चिन्तनं करणीयं यथा रसायनशास्त्रस्य पाठः भवति इतिहासस्य पाठः भवति तथा संस्कृतभाषापाठः न भवति इतिहासं रसायनशास्त्रं ज्ञानरूपेण पाठनं करोति शास्त्रं वाङ्मयं लिटरेचर् पाठः यथा भवति तथा भाषापाठः न भाषायाः पाठः कौशलरूपेण पाठः भवति अर्थात् कौशलस्य अभ्यासेन पाठः भवति तथैव भाषायाः अपि अभ्यासेन पाठः भाषायाः पाठनं कथम् इति किञ्चित् चिन्तयामः भाषायाः पाठनार्थम् इदानीं तत्र विचारद्वयमस्ति अथवा मार्गद्वयम् अस्ति एकः मार्गः प्रथमं नियमविवरणं करोति नियमानां विवरणं कृत्वा अनन्तरम् उदाहरणं ददाति यथा पूर्वं भारते भवन्तः संस्कृतं पठितवन्तः ग्रामर् अप्रोच् ग्रामर् ट्रान्स्लेशन् अप्रोच् प्रथमं नियमविवरणं करोति अनन्तरम् उदाहरणानि ददाति तदेव अप्रोच् वदन्ति रूल् टु एक्साम्पल् रूल् टु एक्साम्पल् इति रूल् टु एक्साम्पल् अप्रोच् स्पष्टमभवत् प्रथमं नियमविवरणं करोतु अनन्तरम् उदाहरणं ददाति एवम् एतद् एतद् तत्र कर्मकारकम् इति किमपि उक्त्वा कर्मकारकं यत्र भवति तत्र द्वितीयाविभक्तिः भवति रामः पुस्तकं पठति इति अनन्तरम् उदाहरणं ददाति एतत् रूल् एक्साम्पल् अप्रोच् भवति अन्यविध एक अप्रोच् अस्ति प्रथमम् उदाहरणानि ददाति उदाहरणार्थं नारायणः गतवान् केशवः गतवान् शान्तिः गतवती ज्योतिः गतवती एतावत् वदति चेत् छात्रः किम् अवगच्छति न न वदतु किं किं पुरुषः चेत् गतवान् इति भवति स्त्री चेत् गतवती इति भवति बालकः गतवान् बालकाः गतवन्तः पुरुषः गतवान् पुरुषाः गतवन्तः महिला गतवती महिलाः गतवत्यः एतेन किं किं ज्ञातवन्तः वदन्तु भवन्तः एकवचने एकवचने किं एकवचनपुल्लिङ्गे गतवान् इति रूपम् पुल्लिङ्ग बहुवचने गतवन्तः इति रूपम् एकवचने गतवती इति रूपं गतवत्यः ಸಹ ಇತಿ ರೂಪಂ ಇದಾನಿ ಪಶ್ಯತು ಏತತ್ ಏತ ಉಪಾಯ ಅಸ್ತಿ ಏತತ್ ಅಪ್ರೋಚ್ ಅಸ್ತಿ
ಸಾಂಪ್ರತ ರೂಲ್ ಅಪ್ರೋಚ್
ಪ್ರಥಮಂ ಅಪ್ರೋಚ್ ಅಸ್ತಿ ಪುಲ್ಲಿಂಗೇ ಏಕವಚನೆ ವಾನ್ ಇ ಭೂತಕಾಲೇ ವಾನ್ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಭೂತಕಾಲೇ ಬಹುವಚನೆ ಪುಲ್ಲಿಂಗೇ ವಂತಃ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಉದಾಹರಣಂ ಗತವಾನ್ ಗತವಂತಃ ಸ್ತ್ರೀಲಿಂಗೆ ಭೂತಕಾಲೇ ಏಕವಚನೆ ವತಿ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಭೂತಕಾಲೇ ಸ್ತ್ರೀಲಿಂಗೆ ಬಹುವಚನೆ ವತ್ಯಃ ಇತಿ ಪ್ರತ್ಯಯಃ ಭವತಿ ಉದಾಹರಣಂ ಗತವತಿ ಗತವತ್ಯಃ ಇತಿ ಏವಂ ವದತಿ ಚೇತ್ ಅತ ರೂಲ್ ಟು ಎಕ್ಸಾಂಪಲ್ ಅಪ್ರೋಚ್ ಭವತಿ
ಭವನ್ ಸಂಸ್ಕೃತಿ ಉತ್ತಮ ಉದಾಹರಣ
ನಿಯಮ ಉದಾಹರಣ ನಿಯಮ ಉದಾಹರಣ ವರ್ತಮಾನ ಸಂಸ್ಕೃತ ಶಿಕ್ಷಣೆ ವಿದ್ಯಾಲಯ ನಿಯಮತಃ ಉದಾಹರಣ ಪ್ರತಿ ಇತಿ ಶಿಕ್ಷಣ ವಿಚಾರ ಅಪ್ರೋಚ್ ಇತ್ಯಸ್ಯ ವಿಚಾರ ಇತಿ ಶಬ್ದ ಸ್ವೀಕರೋತಿ ಇದಾನೆ ಅಥವಾ ಮಾರ್ಗ ಮಾರ್ಗ ಪರಂತು ಅಸ್ಮಾಕಂ ಶಿಕ್ಷಣೆ ವಸ್ತುತಃ ಪ್ರಭಾವಿ ಭಾಷಾ ಶಿಕ್ಷಣೆ ಪ್ರಭಾವಿ ಇಫೆಕ್ಟಿವ್ ಪ್ರಭಾವಿ ಭಾಷಾ ಶಿಕ್ಷಣೆ ಉದಾಹರಣತಃ ನಿಯಮ ಪ್ರತಿ ಇತಿ ಮಾರ್ಗ ಸ್ವೀಕರಣೀಯ ಸ್ಪಷ್ಟಂ ಜಾತಂ ಪ್ರಭಾವಿ ಭಾಷಾ ಶಿಕ್ಷಣೆ ಉದಾಹರಣತಃ ನಿಯಮ ಪ್ರತಿ ಇತಿ ಮಾರ್ಗ ಸ್ವೀಕರಣೀಯ ಅಸ್ಮಾ ಭಾಷಾ ಶಿಕ್ಷಣೆ ತತ್ರ ಶಬ್ದತ್ರಯಂ ವಯಂ ಚಿಂತಯಾಮಃ ಅಪ್ರೋಚ್ ಮೆಥಡ್ ಟೆಕ್ನಿಕ್ ಇತಿ ಅರ್ಥ ಅಪ್ರೋಚ್ ಇತ್ಯಸ್ಯ ಮಾರ್ಗಃ ಇತಿ ಸ್ವೀಕರೋತು ಮಾರ್ಗಃ ವಿಚಾರಃ ಕಮಪಿ ಭವಿತುಮರ್ಹತಿ ಅಂತಿಮಶಬ್ದಃ ನ ಮಾರ್ಗಃ ಅನಂತರಂ ವಿಧಿ ಮೆಥಡ್ ಟೆಕ್ನಿಕ್ ತಂತ್ರ ಅಪ್ರೋಚ್ ಮೆಥಡ್ ತಂತ್ರ ಇತಿ ಶಬ್ದತ್ರಯಮಸ್ತಿ ಏಕ ಮಹಾನ್ ವಿಚಾರ ತಸ್ಯ ವಿಚಾರಸ್ಯ ಅಂತರ್ಗತ ರೂಪೇಣ ಮಾರ್ಗಸ್ಯ ಅಂತರ್ಗತ ರೂಪೇಣ ವಿಧಿ ಭವತಿ ವಿಧೇ ಅಂತರ್ಗತ ರೂಪೇಣ ತಂತ್ರ ಭವತಿ ಅಹಂ ಉದಾಹರಣೆಯನ್ನ ದರ್ಶಯಾಮಿ ಯಥಾ ಯತ್ಕಿಮಪಿ ಪಾಠಯತಿ ಚೇತ್ ಯತ್ ಏಕಂ ಕಿಮಪಿ ವಾಕ್ಯಂ ಪಾಠಯತಿ ಚೇತ್ ಪೃಥಕ್ ಭೂತಂ ಏಕಂ ವಾಕ್ಯಂ ನ ಪಾಠಯತಿ ಪೃಥಕ್ ಭೂತಂ ವಾಕ್ಯಂ ಇತ್ಯುಕ್ತೆ ಐಸೋಲೇಟೆಡ್ ವಾಕ್ಯಂ ಏಕೈಕಂ ವಾಕ್ಯಂ ಏವ ನ ಪಾಠಯತಿ ಉದಾಹರಣಾರ್ಥಂ ಭವಂತಃ ಇಂಗ್ಲಿಷ್ ವ್ಯವಹಾರ ಸಾಹಸ್ರಿ ಇತಿ ಪುಸ್ತಕಂ ದೃಷ್ಟವಂತಃ ನಮ್ಮ ಸಂಸ್ಕೃತ ವ್ಯವಹಾರ ಸಾಹಸ್ರಿ ಇತಿ ಪುಸ್ತಕಂ ದೃಷ್ಟವಂತಃ ತತ್ರ ಏಕಸಹಸ್ರ ವ್ಯಾವಹಾರಿಕ ವಾಕ್ಯಾನಾಂ ಸಂಗ್ರಹಃ ಅಸ್ತಿ ವಾಕ್ಯಾನಾಂ ಅಥವಾ ಅತ್ರ ಪುಸ್ತಕೆ ಅಪಿ ಭವಿತುಂ ಅರ್ಹತಿ ಕಾನಿಚನ ವಾಕ್ಯಾನಿ ಇತಿ ಅತ್ರ ಸಂತಿ ವಾ ವ್ಯವಹಾರ ವಾಕ್ಯಾನಿ ಇತಿ ಅತ್ರ ನ ಸಂತಿ ಭವತು ಏವಮೇವ ಕತಿಚನ ವ್ಯವಹಾರ ವಾಕ್ಯಾನಿ ಅಹಂ ಗಚ್ಚಾಮಿ ಸಹ ತತ್ರ ಮಿಲಿತವಾನ್ ಪುಸ್ತಕಂ ಸಮ್ಯಕ್ ಅಸ್ತಿ ಭವಾನ್ ಕುಶಲಂ ವಾ ಮಮ ಸ್ವಾಸ್ಥ್ಯ ಸಮ್ಯಕ್ ನಾಸ್ತಿ ವಾಕ್ಯಾನಿ ವಾಕ್ಯಾನಾಂ ಪರಸ್ಪರಂ ಸಂಬಂಧಃ ನಾಸ್ತಿ ಸ್ಪಷ್ಟಂ ಜಾತಂ ಏವಂ ವಾಕ್ಯಾನಿ ಏವಂ ನ ಪಾಠನೀಯಾನಿ ಇತಿ ಕಶ್ಚನ ವಿಚಾರ ವಾಕ್ಯಸ್ಯ ಅರ್ಥಪೂರ್ಣತ ಸಾರ್ಥಕತ ಸಂದರ್ಭೆ ಏವ ಏಕಸ್ಮಿನ್ ಸಂದರ್ಭೆ ಇದಾನಿ ಏಕ ಸಾಮಾನ್ಯ ವಿಷಯ ಅಹಂ ಶ್ವಃ ಆಗಮಿಷ್ಯಾಮಿ ಇತಿ ವಾಕ್ಯಮಸ್ತಿ ಅಹಂ ಶ್ವಃ ಆಗಮಿಷ್ಯಾಮಿ ವಾಕ್ಯಂ ಶುದ್ಧಂ ಖಲು ಶ್ವಃ ಇತ್ಯಸ್ಯ ಭವಿಷ್ಯತ್ ಕಾಲ ಅಹಂ ಶ್ವಃ ಆಗಮಿಷ್ಯಾಮಿ ವಾಕ್ಯಂ ಶುದ್ಧಂ ಮಮ ಪ್ರಶ್ನೆ ಅಸ್ತಿ ಪಾಠಂ ಪಠಿತವಾನ್ ಕಿಂ ಇತಿ ಮಮ ಪ್ರಶ್ನೆ ಪಾಠಂ ಪಠಿತವಾನ್ ಕಿಂ ಇತಿ ಮಮ ಪ್ರಶ್ನೆ ಭವಾನ್ ಉತ್ತರಂ ವದತಿ ಅಹಂ ಶ್ವಃ ಆಗಮಿಷ್ಯಾಮಿ ಇದಾನೆ ಶುದ್ಧಮಸ್ತಿ ವಾ ನಾಸ್ತಿ ಕಿಂಚಿತ್ ಕಾಲ ಪೂರ್ವಂ ಭವಂತಃ ಉಕ್ತವಂತಃ ವಾಕ್ಯಂ ಶುದ್ಧಂ ಇದಾನೆ ವದಂತಿ ವಾಕ್ಯಂ ಶುದ್ಧಂ ನ ಇತಿ तर्हि वाक्यमपि वाक्यस्य पूर्णता सन्दर्भे एव सन्निवेशे एव तस्य अर्थस्य पूर्णता भवति. स्पष्टं जातम्? अतः वाक्यं तत्तत् सन्दर्भे पाठयतु इति एकः विषयः. स्पष्टम् अभवत्? यस्मिन् सन्दर्भे तस्य वाक्यस्य प्रयोगः भवति तादृशसन्दर्भे पाठयतु. सन्दर्भः नाम सिचुवेशन्. एक सिचुवेशन् मध्ये तस्य पाठनं करोतु. अपि च उपयोगिवाक्यमेव पाठनं करोतु. भवतां मध्ये शाकाहारी कः कः अस्ति? शुद्धशाकाहारी. शुद्धशाकाहारी इत्युक्ते मांसं न खादति तादृशः. इदानीं भवान् इदानीम् एकं वाक्यं वदतु. अहं मत्स्यं खादामि.
अहं
न मत्स्यं खादामि इति
वाक्यं
अहं मत्स्यं खादामि इति वाक्यं शुद्धं, परन्तु तस्य जीवने कदापि तस्य वाक्यस्य प्रयोगः न भवति. यदा कदापि एतस्मिन् जन्मनि सः अहं मत्स्यं न खादामि इति वदति, परन्तु अहं मत्स्यं खादामि अथवा अद्य अहं मत्स्यं खादितवान् वाक्यं शुद्धं व्याकरणदृष्ट्या. अद्य अहं मत्स्यं खादितवान् तत् वाक्यं सः जीवने कदापि तस्य वाक्यस्य प्रयोगं न करोति. व्याकरणदृष्ट्या शुद्धं, परन्तु अर्थदृष्ट्या तस्य व्यक्तिगतजीवने तस्य उपयोगिता दृष्ट्या तत् अशुद्धं. नाम तस्य तस्य आवश्यकता नास्ति. तर्हि उपयोगिता द्वितीयविषयः. अन्यच्च इदानीम् एवमस्ति, भवान् पत्रालयं गच्छति, पोस्ट् आफीस् गच्छति. पत्रालयं गत्वा किं किं वाक्यं, कति वाक्यानि तत्र वदति? किमपि एतत् पत्रं प्रेषणीयं, स्टाम्प् ददातु, मूल्याङ्कं ददातु, कति डालर् भवति, तत् आवरणं ददातु, किमपि कवर्, सामान्यपत्रम् अथवा शीघ्रपत्रं, पञ्चवाक्यानि वदति, तावदेव, अधिकवाक्यानि न वदति. अन्येक आपणं गच्छति, दशवाक्यानि वदति. ड्रै औस् किमपि ड्रै क्लीनर् समीपं गच्छति, पञ्चवाक्यानि वदति. गेस् हौस् गच्छति, कदाचित् वदेति कदाचित् न वदेति, वदति चेत् वाक्यद्वयं वदति. एकैकसन्निवेशे दिने प्रातःकालतः रात्रिपर्यन्तम् एवम् एकैकसन्निवेशं स्वीकरोतु, एकैकसिचुवेशन् स्वीकरोतु. तत्तत् सिचुवेशन् मध्ये भवान् कति वाक्यानि पाठ वदति? पञ्चवाक्यानि, अष्टवाक्यानि. प्रातःकालतः रात्रिपर्यन्तं भवतः कति सिचुवेशन्स् भवति भवतः जीवने? तत्तत् सिचुवेशन् मध्ये वक्तुं किं किं वाक्यम् आवश्यकं तत् पाठयतु. सो एतादृशविषयाः ये सन्ति, एतत् सर्वं मिलित्वा सिचुवेशनल् अप्रोच् इति पाठयन्ति. वाक्यम् एक सिचुवेशन् वाक्यम् एकमेव वाक्यं तथैव स्वतन्त्रतया ऐसोलेटेड् सेण्टेन्स् पृथक्भूतं वाक्यं न पाठयतु. वाक्यम् एक सिचुवेशन् मध्ये पाठयतु, सन्निवेशे सन्दर्भे पाठयतु, तस्मिन् सन्दर्भे उपयोगिवाक्यं पाठयतु, आवश्यकानि वाक्यानि सर्वाणि पाठयतु. एवं दश सिचुवेशन्स् स्वीकरोतु. तर्हि एकैकम् अंशम् इदानीं भाषायाः भूतकालवाक्यानि भवन्ति, भविष्यत्कालवाक्यानि भवन्ति, एवं भिन्नभिन्नव्याकरणगतनियमसम्बन्धे भिन्नभिन्नविषयाः सन्ति. भवतः टीचिङ्ग् यूनिट् अस्ति, भूतकालं पाठयति, भविष्यत्कालं पाठयति, अथवा प्रार्थनां पाठयति. भिन्नभिन्न व्याकरणनियम अनुसारम् एकैक टीचिङ्ग् पायिण्ट् भवेत् अथवा फङ्क्षन् अनुसारं, फङ्क्षन्स् भाषाद्वारा किं करोति, भाषाद्वारा रिक्वेस्ट् करोति, आर्डर् करोति, एक्स्प्लेन् करोति, डिस्क्रैब् करोति. अहं भवतां स्पष्टज्ञानार्थं वदन् अस्मि. सूचनां ददाति, आज्ञां ददाति, निवेदनं करोति, प्रार्थनां करोति. कति एतादृशकार्याणि कति सन्ति? तानि कार्याणि एकैकसन्दर्भे पाठयतु. सन्दर्भ अनन्तरम् एकं कार्यं, फङ्क्षन् आफ् द लेङ्ग्वेज्, भाषायाः क्रिया. भाषाद्वारा भवान् किं पाठयति? वस्तुतः भाषाद्वारा भवान् कम्युनिकेटिव् अप्रोच् द्वारा, कम्युनिकेटिव् अप्रोच् नाम सम्भाषणविधि, सम्भाषण विचार, सम्भाषणमार्गेण, सम्भाषणद्वारा, सम्भाषणमाध्यमेन किं पाठयति? यु टीच् द स्टुडेण्ट् हौ टु डू थिङ्ग्स्. तावदेव किल, हौ टु डू थिङ्ग्स्, हौ टु गेट् थिङ्ग्स् डन् थ्रू द लेङ्ग्वेज्, तत् पाठयति भवान्. स्पष्टम् अभवत्. सो एक डिफरेंट फंक्शन, सो एकैक फंक्शन एकैक सिचुएशन, अथवा एवमपि भवान् सिलेबस् रचयितुं शक्नोति. स्पष्टं जातं भवन्तः? वयं सर्वे भावी शिक्षकाः, रेडिमेड् टेक्स्ट् बुक् नास्ति. भवतां तत्र यत्र भवन्तः पाठं करिष्यन्ति, भवतां छात्राणाम् आवश्यकतानुसारं नीड् बेस्ड् पाठ्यक्रमः भवद्भिः रचनीयः. तदर्थं कथं करणीयम् इति अहं वदन् अस्मि. भवद्भ्यः अहं फिश् न ददामि, फिशिङ्ग् पाठयामि. स्पष्टमभवत् किल? तावदेव. एतद् अनुसारं भवन्तः
इति छात्रः उत्तरं ददाति. पुनः प्रश्नं पृच्छति.
पृच्छति मम नाम किम् इति शिक्षकः प्रश्नं पृच्छति. सः तदा उत्तरं वदति यतः पूर्वम् एवं भवतः नाम नारायणः इति वदति. प्रथमं वदति भवतः नाम नारायणः, अनन्तरं पृच्छति मम नाम किम्.
कृष्णशास्त्री.
पूर्वमेव अहं तत्वाक्यं शिक्षितवान् भवतः नाम इति, तदनन्तरं प्रश्नं पृच्छामि. एवं ज्ञाततः अज्ञातं प्रति इति नोन् टु अन्नोन् मेथड् इति वदन्ति. प्रत्यक्षविधिः इति डैरेक्ट् मेथड्. प्रत्यक्षविधिः इत्युक्ते कथं? यथा अहं गच्छामि, अहम् आगच्छामि, अहम् उपविशामि, अत्र किमस्ति प्रत्यक्षविधिः इत्युक्ते किं? दृष्ट्वा ध्वनिं शृणोति वाक्यम्. इदानीं शिक्षकः अहम् उपविशामि इति वदन् उपविशति, छात्रः ध्वनिं शृणोति अहम् उपविशामि इति वाक्यं शब्दसमूहं शृणोति, तथैव अहम् इति वदन् शिक्षकः आत्मानं दर्शयति, उपविशामि इति क्रियां करोति. क्रियायाः यत् क्रियापदमस्ति उपविशामि, उपविशामि इति शब्दस्य अर्थम् एतेन अभिनयेन सह पश्यति, जानात् अवगच्छति. अथवा एषा घटी, घटी इति शब्दस्य अर्थं प्रत्यक्षदर्शनेन सह अवगच्छति. एवं चित्र अभिनयेन, वस्तुदर्शनेन अथवा चित्रदर्शनेन अथवा सादृश्यदर्शनेन, आक्चुवल् घटी नास्ति, एक टाय् अस्ति घट्या, अथवा एलिफेण्ट् इति गजम् अहं न अत्र आनेतुं न शक्नोमि, गजस्य चित्रं दर्शयामि अथवा गजस्य एकं क्रीडनकं पाञ्चालिकां टाय् दर्शयामि, सादृश्यं चित्रम् अथवा सादृश्यं सादृश्यं अथवा साक्षात् गजम् इति अहं विटल् भावेनैव दर्शयामि. किमपि एतेन प्रकारेण डान्स् कुर्मः, किमपि सादृश्यम् अनुकरणेन अनुकरणं भवति. एतदेव प्रत्यक्षविधिः इति वदति. एकमेव विषयं पाठयितुं मार्ग, तस्य मार्गस्य अन्तर्गतरूपेण भिन्नभिन्नविधिः भवितुमर्हति. स्पष्टमभवत्? पुनः एकस्मिन् एव विधौ बहूनि तन्त्राणि भवितुमर्हन्ति. टेक्निक्, तन्त्रम् इत्युक्ते टेक्निक्. उदाहरणार्थं सम्यक् इति शब्दः अस्ति, सम्यक् इति शब्दः, तत् तं सम्यक् इति एकं शब्दं पाठयितुं बहूनि तन्त्राणि भवितुमर्हन्ति. उदाहरणार्थम् अहं तत् दर्शयामि, सम्यक् सर्वे सम्यक् उपविशतु, सम्यक् सम्यक्, एकं विधम् एकं तन्त्रं, द्वितीयं सम्यक् स्थापय, सम्यक् द्वितीयतन्त्रं सम्यक् इति. सम्यक् अस्ति, सम्यक् नास्ति,
वेगेन वेगेन मन्देन न शीघ्रं सम्यक्
सम्यक् इति. चतुर्थतन्त्रम्, एतत् पञ्चमतन्त्रं, घटी सम्यक् अस्ति,
सम्यक् अस्ति
घटी, सम्यक् अस्ति केशः, सम्यक् अस्ति, सम्यक् अस्ति, भवतः सम्यक् अस्ति
इति चिन्तयति,
भवतः सम्यक् अस्ति, अद्य सम्यक् अस्ति. सम्यक् इति एकं शब्दं पाठयितुं बहूनि तन्त्राणि, टेक्निक्स्. स्पष्टमभवत्? एवम् एवं मार्गः, विधिः, तन्त्रम् इति एतद् अतः अत्र एतद् महान् विशालविचारः, तदन्तर्गतरूपेण विधिः भवति, विधि अन्तर्गतरूपेण तन्त्रम्, अतः एवं चिह्नं कृतवान् भवतां स्मरणार्थं, तदपि एकं तन्त्रम्.
ಪ್ರಶ್ನ ಸಮ್ಯಕ್ ಇತ್ಯುಕ್ತೆ ಓಕೆ ವಾ ಗುಡ್ ವಾ
ಸಂದರ್ಭಾನುಸಾರಂ ಅರ್ಥಸ್ಯ ಭೇದಃ ಭವಿತುಮ್ ಅರ್ಹತಿ. ಸಮ್ಯಕ್ ಅಸ್ತಿ ಇತ್ಯುಕ್ತೆ ಮತ್ತತ್ರ ಓಕೆ ಇತಿ ಅಧಿಕತಮ
ಸಮೀಚೀನಂ
ಉತ್ತಮಂ ಇತ್ಯರ್ಥ. ಸಮೀಚೀನಂ ಇತ್ಯಸ್ಯ ಉತ್ತಮಂ ಇತ್ಯೇವ. ಸಮ್ಯಕ್ ಇತಿ ಏಕಂ ಅವ್ಯಯಂ ಇಂಡಿಕ್ಲೇನ್ ಸಮ್ಯಕ್ ಅಸ್ತಿ ಓಕೆ ಇತ್ಯೇವ ಅಧಿಕತೆಯ ತಸ್ಯ ಪ್ರಯೋಗ ಅರ್ಹತಿ. ಕ್ವಾಲಿಫೈಸ್ ಇತಿ ಶಬ್ದಾರ್ಥ ಪರಂತು ಶಕ್ನೋತಿ ಇತ್ಯರ್ಥೆ ಯು ಕ್ಯಾನ್ ಇತಿ ನ್ಯೂಮೇ ಇತ್ಯರ್ಥೆ ಅಧಿಕತೆಯ ಆಗಂತುಂ ಶಕ್ನೋತಿ ಆಗಂತುಂ ಅರ್ಹತಿ ಗಂತುಂ ಅರ್ಹತಿ ಇತಿ ತಸ್ಯ ಪ್ರಯೋಗಃ ತಥಾ ಸಂಭವ. ಯತ ಇಟ್ಲಿ ಭಾಷಾ ಕರ್ ಸಕ್ತೆ ಭವತ್ಯ ಮಾತೃಭಾಷಾ ಮಾತೃಭಾಷಾನುಸಾರ ಆವಶ್ಯಕ ಭವತ್ ಎಂ ಇದಾನೀ ಅಸ್ಮಾಭಿಃ ತತ್ರ ಭಾಷಾ ಶಿಕ್ಷಣ ಚಿಂತನ ವಿಷಯ ಅಸ್ತಿ ಭಾಷಾ ಶಿಕ್ಷಣ ನಾಮ ಕಥಂ ಇತಿ. ಇತರ ವಿಷಯಾಣಾಂ ಯಥಾ ಪಾಠನ ಕರೋತಿ ತಥಾ ಜ್ಞಾನರೂಪೇಣ ಭಾಷಾಯಾಃ ಪಾಠನ ಅಭವತಿ. ಭಾಷಾಯಾಃ ಕೌಶಲರೂಪೇಣ ಅಭ್ಯಾಸಂ ಕಾರಯತಿ. ತದ ಅಭ್ಯಾಸಂ ಕಾರಯಿತು ಏವಂ ವೈಜ್ಞಾನಿಕ ವಿಧಿ ಅಸ್ತಿ ವೈಜ್ಞಾನಿಕ ಪದ್ಧತಿ ಅಸ್ತಿ. ಸಂಸ್ಕೃತಂ ಸಂಸ್ಕೃತ ಮಾಧ್ಯಮೇನ ಸಂಭಾಷಣ ಮಾಧ್ಯಮೇನ ಪಾಠನಾಯ ಸಂಭಾಷಣ ಅಪಿ ಏಕಂ ಮಾಧ್ಯಮ ಸಂಭಾಷಣ ಮಾಧ್ಯಮೇನ ವಯಂ ಪಾಠನಂ ಕುರುಮಃ. ಉದ್ದೇಶ್ಯಮಪಿ ಆರಂಭಸ್ತರೆ ಸಂಭಾಷಣ ಕರಣಂ ಉದ್ದೇಶ್ಯಂ ಅನಂತರಂ ವಾಂಗ್ಮಯಸ್ಯ ಅವಗಮನಂ ಇತ್ಯಾದಿ ಇತ್ಯಾದಿ. ಮುಖ್ಯತಯ ವಿಧಿ ದ್ವಯಸ್ಯ ಚಿಂತನಂ ಕರೋತು. ಏಕಂ ತು ವ್ಯಾಕರಣ ಅನುವಾದ ವಿಧಿ ಇತಿ. ದ್ವಿತೀಯಂ ಪ್ರತ್ಯಕ್ಷ ವಿಧಿ ದ್ವಯೋಃ ತತ್ರ ವಿಧಿ ದ್ವಯಸ್ಯ ಕಿಂಚಿತ್ ವಿಸ್ತರೇಣ ಚಿಂತನಂ ಕುರುಮಃ. ಗ್ರಾಮರ್ ಟ್ರಾನ್ಸ್ಲೇಷನ್ ಮೆಥಡ್ ಇತಿ ಯದಸ್ತಿ ವ್ಯಾಕರಣ ಅನುವಾದ ವಿಧಿ ಇತಿ ಇದಾನೀಂ ಸಂಸ್ಕೃತ ಶಿಕ್ಷಣೆ ಸರ್ವತ್ರ ವ್ಯವಹಾರೇ ಅಸ್ತಿ ವಿಶ್ವವಿದ್ಯಾಲಯೇ ಅಥವಾ ವಿದ್ಯಾಲಯೇ. ವ್ಯಾಕರಣ ಅನುವಾದ ವಿಧೌ ವ್ಯಾಕರಣ ಮಾಧ್ಯಮೇನ ಭಾಷಾಂ ಪಾಠಯತಿ ನಿಯಮ ಮಾಧ್ಯಮೇನ ಪ್ರಥಮ ಲಕ್ಷಣ. ದ್ವಿತೀಯ ಲಕ್ಷಣ ವ್ಯಾಕರಣ ನಿಯಮಾನಾಂ ಶಬ್ದರೂಪಾಣಾಂ ಸ್ಮರಣಂ ಕರಣೀಯಂ ಮೆಮೊರೈಸಿಂಗ್ ರೂಲ್ಸ್ ಆಸ್ ವೆಲ್ ಆಸ್ ಡಿಕ್ಲೇಷನ್ಸ್ ನಾಮಪದ ಶಬ್ದರೂಪಾಣಿ ಅಥವಾ ಧಾತುರೂಪಾಣಿ. ತೃತೀಯ ತತ್ರ ಅನ್ಯ ಭಾಷಾಯಾಃ ಪ್ರಯೋಗಃ ಅನ್ಯ ಭಾಷಾ ಮಾಧ್ಯಮೇನ ಪಾಠನಂ ಕರೋತಿ. ಅಪಿ ಚ ಭಾಷಾಶಿಕ್ಷಣಸ್ಯ ಉದ್ದೇಶ್ಯಂ ಅನುವಾದ ಕರಣ ಅವಗಮನ ಅನುವಾದ ಕರಣ ಏತದ್ ವ್ಯಾಕರಣ ಅನುವಾದ ವಿಧೇಯ ಮುಖ್ಯ ಲಕ್ಷಣಾನಿ. ಪ್ರತ್ಯಕ್ಷ ವಿಧಿ ಹೀಗೆ ಡೈರೆಕ್ಟ್ ಮೆಥಡ್ ಇತ್ಯಸ್ಯ ಮುಖ್ಯ ಲಕ್ಷಣಾನಿ. ತತ್ರ ಲಕ್ಷಿತ ಭಾಷಾ ಮಾಧ್ಯಮೇನ ಏವ ಪಾಠನ ಲಕ್ಷಿತ ಭಾಷಾ ಟಾರ್ಗೆಟ್ ಲ್ಯಾಂಗ್ವೇಜ್ ಟಾರ್ಗೆಟ್ ಲ್ಯಾಂಗ್ವೇಜ್ ದ್ವಾರ ಏವ ಲಕ್ಷಿತ ಭಾಷಾ ದ್ವಾರ ಏವ ಪಾಠನ. ದ್ವಿತೀಯ ಭಾಷಾಯಾಃ ತತ್ರ ಏತದ್ ಅನುವಾದೇನ ವಿನಾ ಅಭಿನಯೇನ ವಸ್ತು ದರ್ಶನೇನ ಸಾದೃಶ್ಯ ದರ್ಶನೇನ ಅನುಕರಣೇನ ವಾ ಪಾಠ ಛಾತ್ರ ಲಕ್ಷಿತ ಭಾಷಾಯಾಂ ಯಥಾ ಚಿಂತನ ಕುರಿಯಾತ್ ತಥಾ ಪ್ರಯತ್ನ. ಬಹು ಮುಖ್ಯ ವಿಷಯ ಛಾತ್ರ ಲಕ್ಷಿತ ಭಾಷಾ ಟಾರ್ಗೆಟ್ ಲ್ಯಾಂಗ್ವೇಜ್ ದ್ವಾರ ಚಿಂತನ ಕುರಿಯಾತ್ ತಥಾ ಅಸ್ಮಾಕ ಪ್ರಯತ್ನ ಬಹು ಮುಖ್ಯ ವಿಷಯ. ಪ್ರತ್ಯಕ್ಷ ವಿಧಿ ಅದ್ಯತ್ವೇ ಭಾಷಾ ಶಿಕ್ಷಣೆ ಯಾ ಮುಖ್ಯ ವಿಧಿ ಅಥವಾ ವಿಚಾರ ಅಸ್ತಿ ಕಮ್ಯುನಿಕೇಟಿವ್ ಅಪ್ರೋಚ್ ಇತಿ. ಕಮ್ಯುನಿಕೇಟಿವ್ ಅಪ್ರೋಚ್ ಇತ್ಯುಕ್ತೆ ಏತದೇವ ಭಾಷಾಯಾಃ ಪ್ರಯೋಜನ ಕಮ್ಯುನಿಕೇಷನ್ ಅತಃ ಕಮ್ಯುನಿಕೇಷನ್ ಪಾಠಯತು ಇತಿ. ಏತತ್ ಕದಾ ಆಗತಂ ಇತ್ಯುಕ್ತೆ ವಿಶೇಷತೆಯ ಕಮ್ಯುನಿಕೇಟಿವ್ ಅಪ್ರೋಚ್ ಕದಾ ಡೆವಲಪ್ ಅಭವತ್ ಇತ್ಯುಕ್ತೆ ಅರಬ್ ಮಿಡ್ಲ್ ಈಸ್ಟ್ ಮಧ್ಯಪೂರ್ವ ದೇಶು ಯದ ಪೆಟ್ರೋ ಉತ್ಪತ್ತಿ ಅಭವತ್ ಪೆಟ್ರೋಲ್ 70s ಮಧ್ಯೆ ತೇ ಅಲ್ಪೇನ ಕಾಲೇನ ಅನ್ಯಾನ್ಯ ದೇಶು ಗತ್ವಾ ಪೆಟ್ರೋಲ್ ವಿಕ್ರಯಣ ಕರ್ತು ಮಾರ್ಕೆಟಿಂಗ್ ಕರ್ತು ನೆಗೋಷಿಯೇಷನ್ ಕರ್ತು ಸಂಧಿಂ ಕರ್ತು ತೇ ಇಂಗ್ಲಿಷ್ ಇಚ್ಛಂತಿ ಸ್ಮ अरबदेशीयाः जनाः तदर्थं ते इङ्ग्लेण्ड्तः लेङ्ग्वेज् एक्स्पर्ट्स् हायर् कृतवन्तः बहु धनं दत्तं तेषां समीपे यथेष्टं धनमासीत् ते उक्तवन्तः भवतां स्ट्रक्चर् ग्रामर् न आवश्यकम् अस्माकम् अस्माकं आवश्यकता अमेरिका गत्वा अथवा अन्यदेशं गत्वा अहं पेट्रोल् सेल् कर्तुम् इच्छामि मम एकमासाभ्यन्तरे हौ टु कम्युनिकेट् एतद् पाठयतु हौ टु कम्युनिकेट् मै ऐडियास् देट्स् आल् तत् पाठयतु इति सो तदा 70s मध्ये एतत् कम्युनिकेटिव् अप्रोच् डेवलप् अभवत् सम्भाषणं पाठनीयम् इति एवं तत्र अहं केवलं पृष्ठभूमिं भवतां कृते उक्तवान् पूर्वम् एवमासीत् यत् भाषाशिक्षणं नाम शिक्षकस्य मनसि विचारः अस्ति किं किं पाठनीयम् इति सः तदनुसारं प्लान् कृत्वा आगत्य पाठनं करोति पूर्वं तथा आसीत् परन्तु अनन्तरकाले यथा इण्डस्ट्रि अधिकम् अभवत् पेट्रो यथा उक्तवान् तथा अथवा ट्रावेलर्स् अधिकाः अभवन् अथवा छात्राः अध्ययनार्थम् अन्यान्यदेशं गच्छन्ति एकैकस्य नीड् एकैकम् अस्ति नीड् आवश्यकता भवतः आवश्यकता अत्यन्तं सीमितं भवान् अकस्मात् रिसर्च् स्टूडेण्ट् अस्ति जर्मन् रिसर्च् जर्नल्स् मध्ये भवता किञ्चित् तत्र जर्नल्स् आर्टिकल्स् रिसर्च् आर्टिकल्स् पठित्वा भवता अर्थः ज्ञातव्यः तावदेव भवतः नीड् अस्ति अथवा भवतः नीड् एतदस्ति यत् डिप्लोमेटिक् किञ्चित् नेगोशियेशन्स् किमपि करणीयम् अथवा भवतः नीड् अस्ति एड्मिनिस्ट्रेशन् करणीयं भवतः नीड् अस्ति ट्रावेल् टूर् टूरिस्ट् रूपेण भवान् गच्छति सामान्यं तत्र रेल् कदा अस्ति फ्लैट् टैमिङ्ग्स् एतादृशं भवान् ज्ञातुमिच्छति सो एकैकस्य नीड् अनुसारं भिन्नभिन्नपाठ्यपुस्तकानि रचितवन्तः इङ्ग्लिश् फार् स्पेशल् पर्पसस् इति ते लिखितवन्तः देट् इस् इङ्ग्लिश् फार् मेडिसिन् इङ्ग्लिश् फार् ला इङ्ग्लिश् फार् कम्प्यूटर् सैन्स् अथवा इङ्ग्लिश् फार् इन्फर्मेशन् इङ्ग्लिश् फार् भिन्नभिन्नप्रकारेण ट्रावेलर्स् इङ्ग्लिश् फार् होटेल्स् होटेल् बिस्नेस् सो एतेन प्रकारेण नीड् बेस्ड् सिलेबस् नीड् बेस्ड् कोर्स् आवश्यकताधारित कोर्सस् टैलर् मेड् कोर्स् भिन्नभिन्न अनन्तरं तत्रापि पुनः बिगिनर्स् कृते नाम वयोमानानुसारं बालानां कृते किं प्रौढानां कृते किं बालानां रुचिः कुत्र भवति क्रीडामध्ये भवति एतमध्ये भवति प्रौढानां रुचिः किञ्चित् स्पिरिचुवल् विषयः अथवा सो एतेन प्रकारेण अस्माभिः भिन्नभिन्न नीड् बेस्ड् कोर्स् संस्कृते अपि एतादृश टेक्निक्स् इतः परं वयम् इदानीं कार्यं कुर्वन्तः स्मः वयम् इदानीम् अत्र भवन्तः बहु जनाः सन्ति भवतां नीड्स् किम् उदाहरणार्थम् अहं वदामि सामान्यम् एतत् न नारायणमहोदयस्य रुचिः अस्ति रामायणं पठनीयम् इति सः तदर्थं मूलरामायणं संस्कृते सः पठितुम् इच्छति नारायणः रसिकपारेखमहोदयः भगवद्गीतां संस्कृतेन पठित्वा ज्ञातुम् इच्छति तस्य इण्ट्रेस्ट् तत् गोविन्दः योगवासिष्ठग्रन्थं पठितुमिच्छति विरक्तिः आगता तस्य अर्चना अर्चना अस्ति सा आयुर्वेदग्रन्थं पठितुमिच्छति ज्योति वेदान्तं पठितुम् उपनिषत् पठितुमिच्छति एकैकस्य वयम् इदानीं संस्कृत् फार् भगवद्गीता संस्कृत् फार् वेदान्त संस्कृत् फार् योग संस्कृत् फार् आयुर्वेद संस्कृत् फार् वेद संस्कृत् फार् उपनिषत् संस्कृत् फार् तत्र महाभारतं संस्कृत् फार् म्यूसिक् संस्कृत् फार् डान्स् टु इन् वन् अथवा संस्कृत् त्रू आयुर्वेद संस्कृत् त्रू योग संस्कृत् त्रू भगवद्गीता भगवद्गीतामाध्यमेन संस्कृतं पठतु संस्कृतमाध्यमेन भगवद्गीतां पठतु संस्कृतमाध्यमेन भरतनाट्यशास्त्रं पठतु भरतनाट्यशास्त्रमाध्यमेन संस्कृतं पठतु आयुर्वेदमाध्यमेन संस्कृतं पठतु संस्कृतमाध्यमेन आयुर्वेदं पठतु सो एतादृश नीड् बेस्ड् कोर्स् मेटीरियल् अस्माभिः इदानीं कार्यम् आरब्धं षण्मासे सद्यः एव वयं पूर्णं करिष्यामः कार्यं प्रचलति नीड् बेस्ड् कोर्सस् डेवलप् करणीयं स्पष्टम् सो एतादृशचिन्तनं शिक्षणमेव नीड् बेस्ड् इति एतद् भवति आवश्यकताधारितं सो भवद्भिः अपि यदा अत्र पाठ्यक्रमः रच्यते पाठनं चिन्तयति भवतां छात्राणां नीड् किम् अपि च रुचिः का तेषाम् आसक्तिः इण्ट्रेस्ट् तदनुगुणम् उदाहरणवाक्यानि स्वीकरोतु एतत् करोतु आकर्षकं भवति स्पष्टमभवत् सो एवं संस्कृतशिक्षणम् आकर्षकम् एतत् कर्तुम् एतादृशाः बहवः चिन्तनीयाः विषयाः सन्ति एतान् सर्वान् विषयान् भाषारूपेण पाठनं नियमद्वारा न उदाहरणद्वारा अभ्यासद्वारा एतत् कारणं पुनः भिन्न भिन्न तन्त्रैः पाठनम्, एतावत् पर्यन्तम् अहं यानि यानि विषयान् उक्तवान् तान् सर्वान् विषयान् मनसि स्थापयित्वा पाठनं चिन्तनीयम् इति.
किमर्थम् आवश्यकताधारित
पाठ्यक्रमः?
पाठ्यक्रमः
आवश्यकता आधारित नीड् बेस्ड् पाठ्यक्रमः, सिलेबस् अथवा कोर्स् मेटीरियल्.
प्रश्नः स्फुटितः, एतत् सर्वं डैरेक्ट् मेथड् टेक्निक् अभिनयनेन वा कथं दर्शनेन वा किं टेक्निक् भवान् उक्तवान्, तत्सर्वं भाषणार्थं सम्भाषणार्थम् एड्स्, तत्सर्वं सोपानस्य प्रथम स्टेप् भवति. तदनन्तरं अन्यानि स्टेप्स् तत् पर्पस् भिन्नभिन्नः ट्रेडिशनल् टेक्निक्स् आवश्यकति वा न?
हा, ट्रेडिशनल् टेक्निक्स् अपि भवितुमर्हन्ति. वयम् अनन्तरं तत्रापि वयं पोस्ट् मेटीरियल् डेवलप् कर्तुं शक्नुमः, करणीयम्. इदानीं तत्र न आरब्धवन्तः. रीडिङ्ग् विषये, रैटिङ्ग् विषये अपि वयं कक्षाः चालयामः. सम्भाषणेन, सम्भाषणमाध्यमेन एकवारं भवान् भाषायां प्रभुत्वं स्थापयति, देन् अदर् स्किल्स् यु आल्रेडि ह्याव्, रीडिङ्ग् स्किल्स्, इदानीम् इङ्ग्लिष् अन्यान्यभाषासु भवतः अस्ति एव, रैटिङ्ग् स्किल्स् अपि भवतः अस्ति एव, तदेव भवान् अत्र संस्कृते अपि अप्लै कर्तुं शक्नोति. संस्कृतसम्बन्धे किञ्चित् विशिष्ट टेक्निक्स् आवश्यकं, यथा संस्कृतवाक्यानि सन्धियुक्तानि भवन्ति, पठनकाले मनसि सन्धिविच्छेदं कर्तुं भवतः कौशलम् आवश्यकं. तदर्थमपि अस्माकं समीपे ट्रेनिङ्ग् पेकेज् अस्ति अथवा माड्यूल् अस्ति, कोर्स् माड्यूल् अस्ति, तदपि वयं कर्तुं
शक्नुमः.
अहम् इदानीं केवलं सम्भाषणशिक्षणविषये वदन्नस्मि, प्राथमिकसोपानविषये. भवान् अनन्तरं
मम एकः प्रश्नः अस्ति, इवन् इलिच् नाम एकः एजुकेशनिस्ट् अस्ति, सः डिस्कूलिङ्ग् थाट् इति एकं पुस्तकम् अहं तं मिलितवान् मुम्बैनगरे. सः एक डीप् टेक्निक् निर्देशितवान्.
स्वागतम्. अस्माकं तु एकं मेथड् इति नास्ति, अस्माकम् एक्लेक्टिक् मेथड् सम्मिश्र विधिः, यत्र यत्र उत्तमविचाराः सन्ति सर्वं स्वीकुर्मः. आनो भद्रा वयन्तु क्रतवो विश्वतः, सर्वदिभ्यः उत्तमविचारान् वयं स्वाहीकुर्मः, तमपि स्वीकुर्मः.
क्षेत्रे आगच्छन्ति जनाः, बालाः सन्ति, प्रौढाः सन्ति, तेषु केचन जनाः संस्कृतं जानन्ति पूर्वं, तेषु संस्कृतं किमपि न जानन्ति एव.
तत्र किञ्चित् कष्टमस्ति, यदि साध्यं बालानां गणः पृथक्, प्रौढानां गणं पृथक् करोतु, यदि साध्यं एज् ग्रूप् अनुसारम्. अन्यथा यदि न शक्नोति मिश्रितं भवतु. आरम्भ द्वित्रे त्रीणि चत्वारि दिनानि किञ्चित् कष्टं भवति, अनन्तरं अड्जस्ट् भवति, समानं
भवति.
अत्र अथवा इदानीम् अत्र अग्रिमदिनेषु प्रतिदिनमहं भाषाशिक्षणम्, इदानीम् अहं केवलं भवतां कृते भाषाशिक्षणविषये इन्ट्रोडक्षन् केवलं दत्तवान्, एक कल्पना भवति भवताम् इति, किञ्चित् फिलासफि आफ़् लेङ्ग्वेज् टीचिङ्ग् अथवा मेथड् आफ़् लेङ्ग्वेज् टीचिङ्ग् अहं किञ्चित् बहु संक्षेपेण स्वल्पम् अहं भवद्भ्यः इदानीं दत्तवान्. श्वः परश्वः पुनः विस्तरेण वदामि. अस्माकं पाठ्यक्रमः, दशदिनसम्भाषणशिबिरपाठ्यक्रमः, तस्य पाठनस्य अत्र प्रत्यक्षम् अहं दर्शयामि, भवन्तः अपि पाठनं कृत्वा अभ्यासं कुर्वन्ति, किञ्चित् मात्रेण अत्र प्रशिक्षणं कुर्मः.
शिक्षकाः इति शिक्षकान् भवितुम् इच्छन्ति, तेभ्यः पृथक् प्रशिक्षणशिबिरम् इति
कर्तुं शक्नुमः, यदि एकत्र कान्सन्ट्रेटेड् जनाः सन्ति, इदानीं वे एरिया उदाहरणार्थम् अथवा शिकागो, एवं भिन्नभिन्नस्थाने वयं चिन्तयितुं शक्नुमः. अत्र भवन्तः सर्वे शिक्षकाः भवन्ति इति अथवा भविष्यन्ति इति अहं चिन्तनं कृत्वा अत्र श्वः परश्वः अहं किञ्चित् डेमो करिष्यामि, भवन्तः अपि अभ्यासं करिष्यन्ति.
मातृभाषायाः ज्ञानं नास्ति तर्हि इफेक्टिव् अस्ति वा
भवति. इदानीम् उदाहरणार्थं भारतदेशे अथवा अत्र फ्रेञ्च् भाषायाः जर्मन् भाषायाः कक्षा भवति. ते वन्दतः मोमेण्ट् वन्दतः ते जर्मन् भाषया एव इष् नाम इत्येव किमपि आरम्भं कुर्वन्ति. ते इङ्ग्लिश् प्रयोगं न कुर्वन्ति. जर्मन् अत्र कोऽपि गतवान् जर्मन् भाषाकक्षां हा फ्रेञ्च् भाषाकक्षां भवन्तः तत्र दृष्टवन्तः स्युः. तत्र इङ्ग्लिश् उपयोगं न कुर्वन्ति. टोटल् इमर्शन् मेथड् तत्र. सो तथैव अत्रापि संस्कृते अपि भवति.
भवान् फलशब्द संस्कृतशब्द संस्कृतशब्द उच्चारणसमये ओष्णस्पर्शनं समीक्षणं न करणीयम् इति उक्तवान्. षष्ठी
मकारस्य मकार उच्चारणे तत्र फलशब्दस्य अहं वस्तुतः केवलं फलशब्दविषये न अनुस्वारस्य मकारस्य उच्चारणं कथं करणीयम् इति संस्कृत इति शब्दे उदाहरणार्थम् अहं पुनः दर्शयामि. शब्दद्वयमस्ति सकारतरेव अत्रापि स्वीकरोमि.
क्षम्यतां
अत्र अनुस्वारः अस्ति अत्र मकारः अस्ति. एतस्य शब्दस्य उच्चारणसमये संस्कृतम् एतस्य उच्चारणसमये सम्बन्धः 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 संस्कृतम् अत्र अनुस्वारः अतः ओष्ठ उच्चारणं नास्ति. अत्र मकारः अतः सम्बन्धः सामान्य इदानीं कुत्र अनुस्वारः कुत्र मकारः इत्यस्य नियममपि इदानीं सन्दर्भवशात् इदानीमेव अहं वदामि. कुत्र अनुस्वारः कुत्र मकारः इति भवन्तः जानन्ति लेखननियमः एतावदेव. यत् वाक्यस्य अन्ते मकारः इति चिन्तयतु. यत्र कुत्रापि अन्ते वाक्यस्य अन्ते मकारः प्रथमनियमः. वाक्यान्ते मकारः प्रथमनियमः. वाक्यान्ते मकारः द्वितीयं स्वरे परे स्वरः स्वरः परः परः इत्युक्ते अनन्तरम् इति स्वरे परे सप्तमे भवतु परे अस्ति चेत् इति स्वरः परे अस्ति चेत् इत्यर्थः स्वरे परे इति विशिष्टप्रयोगः जानन्ति एव भवन्तः. स्वरे
फलम् अस्ति
अस्तु लघुवाक्यं लिखामि फलम् अस्ति. स्वरः परे अस्ति परे स्वरः अस्ति अतः मकारः लिख्यते.
यदि फलं खादितवान्
फलं खादितवान् फलं नास्ति उत्तमं फलं नास्ति
पश्यतु.
लेखनार्थं संस्कृते लेखनीयं खलु भवती उच्चारणसमये एतत् अधिकं किमपि न एतत् अत्यन्तं नेचुरल् नियमं न कृतवन्तः. पाणिनिः किं कृतवान् यत् नेचुरल् भवति तदेव सः वर्णनं कृतवान्. भवती नास्ति इति कथनसमये फलं नास्ति इति उच्चारणं कर्तुं न शक्नोति. फलं नास्ति इत्येव भवति अतः अनन्तरं शब्दमध्ये 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 यत्र मकारस्य कथम् इत्युक्ते मकारः यत्र वर्गीयव्यञ्जनं भवति, वर्गीयव्यञ्जनम् इत्युक्ते पञ्चवर्गीय कवर्गः चवर्गः कवर्गः कवर्गः पवर्गः इति एते वर्गीयव्यञ्जनानि. वर्गीयव्यञ्जनम् अग्रे अस्ति चेत् अनुस्वारस्य अग्रे यदा वर्गीयव्यञ्जनं भवति तस्य वर्गस्य अन्तिमवर्णः पञ्चमवर्णः भवति. उदाहरणार्थम् इदानीम् अङ्क इति शब्दः अस्ति, अङ्क मार्क्स् अथवा अङ्कनी, अङ्कनी इत्युक्ते पेन्सिल् इत्यर्थः, अङ्कनी पेन्सिल्. अङ्कनी इति कवर्गः अनुस्वारस्य अनन्तरं क अस्ति. कवर्गस्य पञ्चमवर्णः कः? न ख ग ख न अङ्कनी इति लेखनीयम्. एवमपि लेखितुं शक्यते अथवा उभयमपि शुद्धम्. एतत् अशुद्धम्, एतत् शुद्धम्. एतत् अशुद्धम्. एवं लिखति चेत् अशुद्धं भवति, एवं न लेखनीयं. इत्यपि हिन्दीभाषायां भवेत्, संस्कृते यदि पङ्कज इति एवं लिखति चेत् भवत्याः कृते शून्याङ्क तथैव शङ्ख शङ्ख गख शङ्ख तथैव ग अङ्गम् अङ्गं शङ्ख
शङ्ख
सङ्घ चवर्गस्य अञ्चलम् अञ्चलम् पञ्च पञ्च किञ्चित् च अल्पप्राणञ्चपि अल्पप्राणं व्यञ्जनं व्यञ्जनम् एवम्. इदानीं गृहपाठं ददामि. कवर्ग चवर्ग तवर्ग पवर्ग टवर्ग पञ्चवर्गाणामपि एकैकस्य अल्पप्राणस्य महाप्राणस्य पञ्च पञ्च उदाहरणानां सङ्ग्रहं कुर्वन्ति. प्रत्येकम् अक्षरस्य पञ्चशब्दाः भवद्भिः स्वतन्त्रतया सङ्ग्रहणीया. भवान् तस्य न पश्यतु अपि अंशः अनुस्वरः वर्गीयव्यञ्जनमस्ति वा पश्यतु, नास्ति चेत् नास्ति.
तत् सूत्रं किं?
केवलं
प्रथममासीत् वाक्यान्ते मकारः, द्वितीयः स्वरे परे मकारः.
वर्गीयव्यञ्जने परे तस्य वर्गस्य पञ्चमवर्णः. अन्यत्र अनुनासिकम् पञ्चवर्गीयव्यञ्जनेषु नास्ति. वर्गीयव्यञ्जने परे तस्य वर्गस्य पञ्चमवर्णः भवति. अन्यत्र अनुस्वारः
तस्य वर्गस्य
पञ्चमवर्णः भवति. अन्यत्र अनुस्वारः
परे इत्युक्ते
अनन्तरम् इति
अनन्तरम्
अनन्तरम्
एतत् केवलं इति लिखितं एवं वा?
उच्चारणमपि तदनुसारमेव भवति. उच्चारणमपि तथैव गोविन्दः इति गोविन्दः इति भवान् उच्चारणं कर्तुमेव न शक्नोति. गोविन्दः इत्येव गोविन्दः नकारस्य दन्तानाम् आवश्यकता भवत्येव. काञ्चन चकारः समयः कंसः वा कंसः अस्ति इदानीं पश्यतु अथवा एतदेव एतत् किमर्थं न भवति एतत् एतत् अकारः पकारपञ्चमं यत्र प फ ब फ अस्ति तत्र केवलं मकारः भवति अन्यत्र न भवति यथा
कुम्भकर्णः
कुम्भकर्णः इत्यादि प फ ब फ चत्वारि अक्षराणि यत्र अथवा म सम्माननं सम्मान तत्र म अस्ति तत्र एवं तेषु पञ्चस्थानेषु केवलं मकारः अन्यत्र सर्वत्र अनुस्वारः भवतु गच्छामः समयः अभवत् पुनः सार्ध एकादशवादने दश निमेषाधिकः क्षम्यताम्.